गणानां त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तवम् ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आनश्रण्वन् नोतिभिः सेदसादनम् प्रणो देवे सरस्वते वाजिनीवते धीनामभित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमण्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यातयुष शिवतमा शिवम् बभूवते धनुः शिवा शरव्यायातवतया नो रुद्रमृणया याते रुद्र शिवा तनोरघोरा पापकाशिनी तयानस्तनु वाशन्तमया गिरिश ताभि चाकशीः यामिषुम् गिरिशन्तहस्ते बिभर्षस्तवे शिवाम् गिरित्रताम् कुरु माहिगो शिः पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यता नः सर्वमिज्जगत यक्ष्मगो सुमना असत् अध्यवोच जदि वक्ता प्रथमो दैव्योऽभिषक् अहेगुश्च सर्वाञ्जम्भय सर्वाश्च यातु धान्यः असो यस्ताम्रो अरुण उत बभ्रुस्सुमङ्गलः एचेमागुम् रुद्रा अभितो दिक्षुश्रिता सहस्रशो वैशागुम् हेण इमहे असव्यो वसर्पति नीलग्रीवो विलोहितः उतैनम् गोपा अदृश न दृशन्नुदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृणयाति नः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीदृशे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरार्नियोर्च याश्च ते हस्त इषवः पराता भगवोऽवपा अवतत्य धनुस्वगुम् सहस्राक्षशतेषु धे निषेर्य शल्यानामुका शिवो न सुमना भवा विज्रन्धनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येशव आभुरस्य निषङ्गतिः याते हेतिर्मीढुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानादताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् मृणत्तु विश्वतः अथो यगिषुदिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय काला विरुद्राय नीलकण्ठाय मृत्युम् जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः నమో హిరణ్యబాహవే సేనాన్యే దిశా చ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్యః పశూనాం పతయే నమో నమః సస్పింజరాయ త్రిషీమతే పతీనాం పతయే నమో నమో బభ్లుషాయ వ్యాదినేన్నానాం పతయే నమో నమో హరికేశాయోపవీతినే పుష్టానాం పతయే నమో నమో భవస్య హేత్యే జగతాం పతయే నమో నమో రుద్రాయ దతావినే క్షేత్రాణాం పతయే నమో నమః సూతాయ అంద్యాయ వనానాం పతయే నమో నమో రోహితాయ స్తపతయే వృక్షాణాం పతయే నమో నమో మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో భువంతయే వారివస్కృతాయౌషధీనాం పతయే నమో నమ ఉచ్చైర్ఘోషాయ క్రందయతే పత్తీనాం పతయే నమో నమ కృష్ణవేతాయ ధావతి సత్వనాం పతయే నమః నమః సహమానాయ వ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమః ककुभाय निषंगिने एस्तेनानाम पतये नमो नमो निषंगिन इशुधिमते तस्कराणाम पतये नमो नमो वंचते परिवंचते स्तायूनाम पतये नमो नमो निचेदवे परिचरायारण्यानाम పతయే నమో నమస్కావిభ్యో జిగాగుం సద్భ్యోముష్ణత పతయే నమో నమో శ్రీమద్భ్యో నక్తంచరభ్యః ప్రకృంతానాం పతయే నమో నమ ఉష్ణీషినే గిరిచరాయ కులంచానాం పతయే నమో నమ ఇషుమద్భ్యో దన్వావిభ్యశ్చ వో నమో నమ ఆదన్వానేభ్య ప్రతిదదానేభ్యశ్చ వో నమో నమ ఆయచ్చభ్యో విశుచభ్యశ్చ వో నమో నమోస్యభ్యో విద్యభ్యశ్చ వో నమో నమ ఆసీనేభ్య శయానేభ్యశ్చ వో నమో నమ స్వపద్భ్యో జాగ్రద్భ్యశ్చ వో నమో నమస్తిష్ఠద్భ్యో ధావద్భ్యశ్చ వో నమో నమ సభాభ్యః సభాపతిభ్యశ్చ వో నమో నమో అశ్వేభ్యో అశ్వపతిభ్యశ్చ వో నమః నమ ఆవ్యాధినేభ్యో వివిధ్యంతేభ్యశ్చ వో నమో నమ ఉగణాభ్యస్తృగంహదేభ్యశ్చ వో నమో నమో గృత్సేభ్యో గృత్సపతిభ్యశ్చ వో నమో నమో భ్రాతేభ్యో వ్రాతపతిభ్యశ్చ వో నమో నమో గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో మహద్భ్యః క్షుల్లకేభ్యశ్చ వో నమో నమో రతిభ్యో రతేభ్యశ్చ వో నమో నమో రథేభ్యో రథపతిభ్యశ్చ వో నమో నమ సేనాభ్యః సేనానిభ్యశ్చ వో నమో నమః శత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమస్తక్షభ్యో రథకారేభ్యశ్చ వో నమో నమ కులాలేభ్య కర్మారేభ్యశ్చ వో నమో నమ పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమ ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయుభ్యశ్వరిభ్యశ్చ వో నమో నమశ్వభ్యశ్వపతిభ్యశ్చ వో నమః नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च श्रुतिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीढुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्ध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्र्याय च शेभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः शोकस्याय च वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जघन्याय च बुध्नियाय च नमः सोऽभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च कल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्षाय च नमः शवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरताय च नमः शूराय चावबिन्दते च नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषु धिमते च नमः तीक्ष्णे शवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः इन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः स्ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः सेत्याय च कोल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आताद्याय च लाद्याय च नमः शष्प्याय च भेम्याय च नमः सिकत्याय च प्रवाह्याय च नमः इरण्याय च प्रपत्याय च नमः किगुंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः स्थल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्टाय च नमो रथय्याय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः, शुष्काय च हरित्याय च नमो, लोप्याय च लप्याय च नमः, ऊर्व्याय च सौर्म्याय च नमः, पर्ण्याय च पर्णशद्याय च नमो, पगुरमाणाय चाभिघ्नते च नमः, आखिदते च प्रखिदते च नमो वः, किरिकेभ्यो देवानागुं हृदयेभ्यो नमो, विक्षेणकेभ्यो नमो, विचिन्वत्केभ्यो नम, आनिर्हतेभ्यो नम, आमीभत्केभ्यः, द्रापे अन्धसस्पते दरिद्रन्नीललोहिता, एषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मा रोमो एषाम् किञ्चन ममत्, याते रुद्रशिवा तनो शिवा विश्वाह भेषजे, शिवा रुद्रस्य भेषजे तया नो मृडजीवसे, इमागुम् रुद्राय तवसे कपद्रिणे, क्षयद्वेलाय प्रभरामहे मतिम्, यदा नश्यमशद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम्, मृडानो रुद्रोदनो मयस्कृति क्षयद्वेलाय नमसा विधेमते, यच्छञ्चयोश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ, मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम्, मानो वदे पितरम् मोदमातरम् प्रियामानस्तनुवो रुद्रैर्षः, मानस्तोके तनये मान आयुषि मानो गोषु मानो अश्वेषु रीर्षः, वीरान्मानो रुद्रभामितो वदेर्हविष्मन्तो नमसा विधेमते, आरात्ते गोर्न उत पूरुषग्ने क्षयद्वेलाय सुन्नमस्मेते अस्तु, रक्षाचनो अधि च देव ब्रूह्यदाचनः शर्म यच्च विवरः, सुहिश्रुतम् गत्त सदम्युवानम् मृगन्न भीममुपहत्नमुग्रम्, मृणाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः, परिणो रुद्रस्य हेतुर्नृणत्तु परित्रेशस्य दुर्मदिरगायोः, अवस्थिरा भगवद्भ्यस्तनुश्वमेव स्तोकायतनयाय मृडया, मीडुष्टमशिवतमशिवो न सुमना भव, परमे वृक्ष आयुधम् निधाय कृत्यम् वसाल आचर पिनाक विभ्रदागहे, विकिरित विलोहित नमस्ते अस्तु भगवः, यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्तु ताः, सहस्राणि सहस्रदा बाहुस्तव हेतयः, तासामीशानो भगव पराचेनामुखाकृते, सहस्राणि सहस्रशो ये रुद्र अधिभूम्या, तेषागुम् सहस्रयोजने वधन्वानि तन्मसे, अस्मिन्महत्यर्णवेन्द्रैक्षे भवा अधे, नीलग्रीवाशितिकण्ठा शर्वा अलः क्षमाचराः, नीलग्रीवाशितिकण्ठादिवगु रुद्रा उपश्रिताः, ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः, ये भूतानामधिपतयो विशिका सक्कपद्दिनः, ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान्, ये पताम् पतिरक्षय ऐलभृदाय व्युदः, ये तीर्थानि प्रचलन्ति शिकावन्तो निषङ्गिणः, य एतावन्तश्च भूयागुंसश्च दिशो रुद्राविदस्थिरे, तेषागुं सहस्रयोजने वदन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् एन्तरिक्षे ये दिवि एषामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतेचेर्दशोदे चेर्दशोद्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् ग्रीष्मो यश्च नो द्वेष्टितम् भोजम् मे ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षेयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधेषु यो रुद्रो विश्व भुवनाविवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योर्मत्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु ह्यसृशुधन्वायो विश्वस्य क्षयदिभेषजस्य यश्वा महेशौ मनसाय रुद्रम् नमो भिर्देवमसुरन्दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगुम् शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसे मा वर्धन्तु वाङ्गिरः युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसृतिश्च मे धेतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे अपानश्च मे व्यानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाच्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे ज्येष्ठ्यम् च माधिपत्यम् च मे मन्युश्च मे भामश्च मेमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्छ मे धनम् च मे वशश्च मे त्विषश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुखम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे क्लुप्तम् च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे शम् च मे मयश्च मे प्रियम् च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे
संविच्च मे ज्ञात्रं च मे सोश्च मे प्रसोश्च मे क्षीरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे अमित्रं च मे भयं च मे सुगं च मे शयनं च मे सूषा च मे सुदिनं च मे ऊर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सद्भिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे चैत्रं च म औद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कूयवाश्च मेऽन्नं च मे क्षुच्च मे ब्रेहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मेणवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च म आपश्च मे विरुधश्च म ओषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मेऽश्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवे च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे ह्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशुश्च मे रश्मिश्च मे दाभ्यश्च मेऽधिपतिश्च म उपागुंशुश्च मेऽन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुग्रहाश्च मे तिग्राह्याश्च ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे हार्योजनश्च मे इद्मश्च मे
पर्हिश्च मे
वेदिश्च मे धिष्णीयाश्च मे सृजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च मौपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्छम आधवनीयश्च म आग्नेद्रम् च मे हविर्धारम् च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मे बभृतश्च मे स्वगाकारश्च मे अग्निश्च मे धर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेऽश्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरेरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृक्च मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे
त्रयवी च मे
दित्यवाच्य मे दित्यौहे च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्य मे तुर्यौहे च मे पष्टवाच्य मे पष्टौहे च मवुक्षा च मे वशा च मर्षभश्च मे वेहच्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम्
चक्षुर्यज्ञेन कल्पता
दुःश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो
यज्ञेन कल्पताम्
एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे
नवदश च म
एकविपुंशतिश्च मे त्रयोविपुंशतिश्च मे पञ्चविपुंशतिश्च मे सप्तविपुंशतिश्च मे नवविपुंशतिश्च म एकत्रिपुंशच्च मे त्रयस्त्रिपुंशच्च मे चतस्रश्च मे स्तौ च मे द्वादश च मे षोडश च मे विपुंशतिश्च मे चतुर्विपुंशतिश्च मे स्थाविपुंशतिश्च मे द्वात्रिपुंशच्च मे षट्त्रिपुंशच्च मे चत्वारिपुंशच्च मे चतुश्चत्वारिपुंशच्च मे स्थाचत्वारिपुंशच्च मे वाजश्च प्रसवश्च पिजश्च क्रतुश्च सुवश्च मूर्धा च यश्नियश्चान्यायनश्चान्यश्च भौवनश्च भुवनश्चाधिपतिश्च इडा देवहूर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानि सगुं त्रिषद्विश्वे देवासोक्तवाच
पृथिविमा
कर्मा माहिगुंसेर्मधुवरिष्ये मधुजरिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्या मनुष्येभ्यस्तम् वा देवा अवन्तु शोभायै पितरोऽनुमदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तच्छय्योरावृणीमहे गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः స్వస్తిర్మానుషేభ్యః ఊర్ధ్వం జిగాతు భేషజం శర్ణోస్తు ద్విపదే శరణ్ చతుష్పదే ఓం శాంతి శాంతి
శాంతిః
ఓం సహస్రశీర్ష పురుషః సహస్రాక్ష సహస్రపాద్ స్వభూమిం విశ్వతో వృత్వా అత్యతిష్ఠద్దశాంగులం పురుష ఏవేదపుం సర్వం యద్భూతం యచ్చ భవ్యం ఉతామృతత్వస్యేషానః యదన్నేనాతిరోహతి ఏతావానస్య మహిమా అతో జాయాగశ్చ పూరుషః పారోస్య విశ్వా భూతాని త్రిపాదస్యామృతం దివి త్రిపాదూర్ధ్వముదయేత్ పురుషః పారోస్యేహ భవాత్ పునః తతో విశ్వం వ్యక్రామత్ శాసనానశని అభి తస్మాత్ విరాడ జాయత విరాజో అధిపురుషః స్వజాతో అత్యరిచ్యత పశ్చాద్ భూమిమథో పురః యత్పురుషేణ హవిషా దేవా యజ్ఞమతన్వత వసంతో అస్యాసీదాజ్యం గ్రీష్మ యుగ్మ శరద్ధవిః సప్తాస్యాసన పరిధయః త్రిసప్త సమిదకృతాః దేవా యద్యజ్ఞం తన్వానాః అభద్రం పురుషం పశుం తయ్యజ్ఞం బర్హిషి ప్రోక్షన్ పురుషం జాతమగ్రతః తేన దేవా అయజంత సాధ్యానుషయశ్చరే తస్మాద్యజ్ఞాత్ సర్వభూతః సంభృతం వృషదార్జ్యం పశుగుస్తాగుశ్చగ్రే వాయవ్యాన ఆరణ్యాన్ గ్రామ్యాశ్చరే తస్మాద్యజ్ఞాత్ సర్వభూతః రిషస్సామాని జగ్నిరే ఛంద్రాగుంసి జగ్నిరే తస్మాత్ యజుస్తస్మాదజాయత తస్మాదశ్వా అజాయంత ఏకేచో భయాదతః గామోహ జగ్నిరే తస్మాత్ తస్మాజాత అజావయః యత్పురుషం వ్యదదుః కథిథాప్యకల్పయన్ ముఖం కిమస్య కౌ బాహో కావురోపాదముచ్యేతే బ్రాహ్మణోస్య ముఖమాసీత్ బాహోరాజన్యకృతః ఊరు తదస్య యద్వైశ్యః పద్భ్యాగుం శూద్ర అజాయత చంద్రమావనసో జాతః చక్షోః సూర్యో అజాయత ముఖాదింద్రశ్చాగ్నిశ్చ ప్రాణాద్వాయురజాయత నాభ్యాసీదంతరిక్షం శీర్ష్ణోద్యౌ సమవర్తత పద్భ్యాం భూమిర్దిశ శ్రోత్రాత్ తథా లోకాగుమ్మ కల్పయన్ వేదాహమేతం పురుషం మహాంతం ఆదిత్యవర్ణం తమసస్తు పారే సర్వాణి రూపాణి విచిత్య ధీరః నామాని కృత్వాభివదన్యదాసే ధాతా పురస్తాద్యముదాజహార శక్ర ప్రవిద్వాన్ ప్రదిశశ్చతస్రః త్వమేవం విద్వాన్ అమృత ఇహ భవతి नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् अभिमानः सचन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्भ्यः सम्भूत पृथिव्यैरसाच्च विश्वकर्मणः समवर्ततादि तस्य त्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते जनाय प्रजापतिश्वरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मणे रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे ह्रेश्च ते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा त्वच्छैयोरावृणीमहे गातुम् यज्ञाय
गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् छन्दो अस्तु द्विपदे शम् चतुष्पदे ओ शान्ति 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 ॐ सहनाभवतु सहनो भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ब्रह्मविदात्नोति परम् तदेशाभ्युक्ता सत्यम् ज्ञानमनन्तम् ब्रह्म यो वेदनिहितम् गुहायाम् परमे व्योमन् सोऽश्वते सर्वान् कामान् सः ब्रह्मणाधिपश्चिते तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः आकाशाद्वायुः वायोरग्निः अग्नेरापः अद्यः पृथिवे पृथिव्या ओषधयः ओषधेभ्योऽन्नम् अन्नात् पुरुषः स वा एष पुरुषोन्नरसमयः तस्येदमेव शिरः अयम् दक्षिणः पक्षः अयमुत्तरः पक्षः अयमात्मा इदम् पुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति अन्नाद्वये प्रजा प्रजायन्ते या काश्च पृथिवी कुश्रिताः अथो अन्नेनैव जीवन्ते अथैनदपि यन्त्यन्ततः అన్నగుం హి భూతానాం జ్యేష్టం తస్మాత్ సర్వౌషధముచ్యతే సర్వం వైదేన్నవాప్నువంతి యేనం బ్రహ్మోపాసతే అన్నగుం హి భూతానాం జ్యేష్టం తస్మాత్ సర్వౌషధముచ్యతే అన్నాద్ భూతాని జాయంతే జాతాన్యన్నేన వర్ధంతే అద్యతేతి చ భూతాని తస్మాదన్నం తదుచ్యత ఇతి తస్మాద్వా ఏతస్మాదన్న రసమయాత్ అన్యోంతర ఆత్మా ప్రాణమయః తేనైష పూర్ణః సవా ఏష పురుషవిధ ఏవ తస్య పురుషవిధతాం అన్వయం పురుషవిధః తస్య ప్రాణ ఏవ శిరః జ్ఞానో దక్షిణ పక్షః అపాన ఉత్తర పక్షః ఆకాశ ఆత్మా పృథివీ పుచ్చం ప్రతిష్టా తదప్యేష శ్లోకో భవతి ప్రాణం దేవా అనుప్రాణంతే మనుష్యా పశవశ్చయే ప్రాణో హి భూతానామాయుః తస్మాత్ సర్వాయుషముచ్యతే సర్వమేవ త ఆయుర్యంతే యే ప్రాణం బ్రహ్మోపాసతే ప్రాణో హి భూతానామాయుః తస్మాత్ సర్వాయుషముచ్యత ఇతి తస్యేష ఏవ శరీర ఆత్మా యః పూర్వస్య తస్మాద్వా ఏతస్మాత్ ప్రాణమయాత్ అన్యోంతర ఆత్మా మనోమయః తేనైష పూర్ణః సవా ఏష పురుషవిధ ఏవ తస్య పురుషవిధతాం అన్వయం పురుషవిధః తస్య యజురేవ శిరః ఋక్దక్షిణ పక్షః సామోత్తర పక్షః ఆదేశ ఆత్మా అథర్వాంగిరస పుచ్చం ప్రతిష్ట తదప్యేష శ్లోకో భవతి యతో వాచో నివర్తంతే అప్రాప్యమనసా సహ ఆనందం బ్రహ్మణో విద్వాన్ న బిభేతి కదాచనేతి తస్యేష ఏవ శరీర ఆత్మా యః పూర్వస్య తస్మాద్వా ఏతస్మాత్ మనోమయాత్ అన్యోంతర ఆత్మా విజ్ఞానమయః తేనైష పూర్ణః సవా ఏష పురుషవిధ ఏవ తస్య పురుషవిధతాం అన్వయం పురుషవిధః తస్య శ్రద్ధైవ శిరః ఋతం దక్షిణ పక్షః సత్యముత్తర పక్షః యోగ ఆత్మా మహపుచ్చం ప్రతిష్ట తదప్యేష శ్లోకో భవతి విజ్ఞానం యజ్ఞం తనుతే కర్మాణి తనుతేపి చ విజ్ఞానం దేవాః సర్వే బ్రహ్మజ్యేష్టముపాసతే విజ్ఞానం బ్రహ్మచేద్వేద తస్మాచ్చేన ప్రమాద్యతే శరీరే పాప్మనో హిత్వా సర్వాంగామాం సమశ్నుత ఇతి తస్యేష ఏవ శరీర ఆత్మా యః పూర్వస్య తస్మాద్వా ఏతస్మాద్ విజ్ఞానమయాత్ అన్యోంతర ఆత్మానందమయః తేనైష పూర్ణః సవా ఏష పురుషవిధ ఏవ तस्य पुरुषविधताम् अन्वयम् पुरुषविदः तस्य प्रियमेव शिरः मोदो दक्षिणः पक्षः प्रमोद उत्तरः पक्षः आनन्द आत्मा ब्रह्मपुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति असन्नेव स भवति असद्ब्रह्मेति वेद चेत् अस्ति ब्रह्मेति चेद्वेद सन्तमेलन्ततो विदुरिते तस्येष एव शारीर आत्मा यः पूर्वस्य अथातो नः प्रश्नाः उदा विद्वानमुम् लोकम् प्रेत्य कश्चन गच्छति आहो विद्वानमुम् लोकम् प्रेत्य कश्चिष्णमश्नुता भू सोकामयता बहुस्याम् प्रजायेति सतपोतप्यता सतपस्तत्वा इदगुम् सर्वमसृजत यदिदम् किञ्च तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्चाभवत् निरुक्तम् च निरुक्तम् च निलयनम् च निलयनम् च विज्ञानम् च विज्ञानम् च सत्यम् चारुतम् च सत्यमभवत् यदिदम् किञ्च तत्सत्यमित्याचक्षते तदप्येष श्लोको भवति असत्त्वा इदमग्र आसीत् ततो वै सदजायत तदात्मानग्र स्वयमकुरुत तस्मात् तत्सुकृतमुच्यत इति यद्वै तत्सुकृतम् रसो वै सः रसगृह्येवायम् लब्ध्वानन्दे भवति को ह्येवान्यात् कः प्राण्यात् यदेष आकाश आनन्दो न स्यात् एष ह्येवानन्द याति यदा ह्येवैष एतस्मिन्न दृश्येनात्मे निरुक्ते निलयने भयम् प्रतिष्ठाम् विन्दते अथ सोभयम् गतो भवति यदा ह्येवैष एतस्मिन्नुदरमन्तरम् कुरुते अथ तस्य भयम् भवति तत्रेव भयम् विदुषो मन्वानः स्यात् तदप्येष श्लोको भवति भीषास्माद्वातः पवते भीषोदेति सूर्यः भीषास्मादग्निस्येन्द्रस्य मृत्युर्धावति पञ्चम इति सैषानन्दस्य मीमागुंसा भवति युवास्यात्साधुयुवाध्यायकः आशिष्टो दृढिष्ठो बलिष्ठः तस्येयम् पृथिवी सर्वा वित्तस्य पूर्णा स्यात् स एको मानुष आनन्दः तेषतम् मानुष आनन्दाः स एको मनुष्यगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामः तस्य तेषतम् मनुष्यगन्धर्वाणामानन्दाः स एको देवगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामः तस्य तेषतम् देवगन्धर्वाणामानन्दाः स एकः पितृणाम् चिरलोकलोकानामानन्दः श्रोत्रियस्य चाकामः तस्य तेषतम् पितृणाम् चिरलोकलोकानामानन्दाः स एक आचानजानाम् देवानामानन्दः श्रोत्रियस्य चाकामः तस्य तेषतमाजानजानाम् देवानामानन्दाः स एकः कर्म देवानाम् देवानामानन्दः ये कर्मणा देवानपि यन्ति श्रोत्रियस्य चाकामहतस्य ते ये शतम् कर्म देवानाम् देवानामानन्दाः स एको देवानामानन्दः श्रोत्रियस्य चाकामहतस्य ते ये शतम् देवानामानन्दाः स एक इन्द्रस्यानन्दः श्रोत्रियस्य चाकामहतस्य ते ये शतमिन्द्रस्यानन्दाः स एको बृहस्पतेरानन्दः श्रोत्रियस्य चाकामहतस्य ते ये शतम् बृहस्पतेरानन्दाः स एकः प्रजापतेरानन्दः श्रोत्रियस्य चाकामहतस्य ते ये शतम् प्रजापतेरानन्दाः स एको ब्रह्मण आनन्दः श्रोत्रियस्य चाकामहतस्य स यश्चायम् पुरुषे यश्चासावादित्ये स एकः स य एवंवित् अस्माल्लोकान्भेत्य एतमन्नमयमात्मानमुपसङ्क्रामते एतम् प्राणमयमात्मानमुपसङ्क्रामते एतम् मनोमयमात्मानमुपसङ्क्रामते एतम् विज्ञानमयमात्मानमुपसङ्क्रामते एतमानन्दमयमात्मानमुपसङ्क्रामते तदप्येष श्लोको भवति यतो वाचो निवर्तन्ते अप्राप्य मनसा सह आनन्दम् ब्रह्मणो विद्वान् न बिभेति कुतश्च नेति एतगुम् हवापन तपति किमहगुम् साधुना करवम् किमहम् पापमकरवमिति स य एवम् विद्वानेते आत्मानग् स्पृणते उभे ये वैष एते आत्मानग् स्पृणते य एवम् वेद इत्युपनिषत् सहनाभवतु सहनौ भुनत्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ईशानः सर्वविद्यानाम् ईश्वर सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर् ब्रह्मा शिवो मे अस्तु सदाशिवो तद्विष्णोर्परमम् पलगुम् सदा पश्यन्ति सूरयः दिवेव चक्षुरागतम् तद्विप्रासो विपन्यवो जाग्रुवागुम् सस्रविन्दत् विष्णो यत् परमम् पदम् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वप्रचोदयात् हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात् स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीन्महेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति। शा